अथादशमोऽध्यायः श्रीभगवानुवाच भूय एव महाबाहो शृणु मे परमं वच यथेहं प्रीयमानाय वक्ष्यामि हितकाम्यय न मे विदुसुरागणाय प्रभवं न महाशयः अहम् अधीर हि देवानं महाशीनं च सर्वसः यो मम अजम् अनाधिं च वीथिलोकमहेश्वरम् असमुढ समर्थ्येषु सर्वपापाय प्रमुच्यते बुद्धिर्ज्ञानम् असमोह क्षम सत्यं दम शमः सुखं दुःखं भवो भवो भयं च भयम् एव च अहिंसा समथा तुष्टिस्तपो धानं यशो यशः भवन्ति भावभूतानां मता एव पृथक् विदः महाशया सप्त पूर्वे चत्वारो मनवस्थत मद्भावमानसा जाता येषां लोक इमाप्रजः एतं विभूतिं योगं च मम यो वेति तत्त्वतः सुविकल्पेन योगेन सुच्यथेनाथ संशयः अहं सर्वस्य भवो मथ सर्वं प्रवर्तते इति मत्वा भजन्ते मां बुद्धाभावसमन्वितः मच्चित्तमद्गतप्राणा बोधयन्त परस्परं कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च तेषां सततयुक्तानां भजतां प्रतिपूर्वकं दधामि बुद्धियोगं तं येन माम् उपायन्ति ते तेषाम् एवानुखं पार्थम् अहम् अज्ञानजं तमः न शयाम्यात्मभावस्थो ज्ञानदीपेन भस्वता अर्जुन उवाच परं ब्रह्म परं धाम पवित्रं परमं भवान् पुरुषं शाश्वतं दिव्यम् आदिदेवम् अजं विभुम् अहुस्त्वं ऋषयः सर्वे देवाशीर्मराधस्तथा असि तु देवलो व्यास स्वयं चैव प्रविशि मे सर्वम् एतत्कृतं मन्ये यन्मां वदसि केशव न हि ते भगवन् व्याक्तिं विधुर्देवान् धानवः वक्तुम् अहस्य शेषेण दिव्याह्यात्मा विभूतयः यभिर्विभूतिभिर्लोकान् इमास्त्वां व्याप्य तिष्ठसि कथं विद्यम् अहं योगिंस्त्वां सदा परिचिन्तयन् केषु केषु च भावेषु चिन्त्योऽसि भगवन् मया विस्तरेणात्मनो योगं विभूतिं च जनादन भूय कथाय तृप्तिर्हि शृण्वतो नास्ति मे मृतम् श्रीभगवानुवाच हन्त ते कथयिष्यामि दिव्याह्यात्मा विभूतयः प्राद्यान्यान्तात् कुरु श्रेष्ठ नश्यन्तो विस्तरस्य मे अहमात्मगुराकेश सर्वभूतशयस्थितः अहमधिश्च मत्यं च भूतानामन्त एव च आदित्यानम् अहं विष्णु ज्योतिषं रवि अं सुमं मरीचिर्मरुतम् अस्मि नक्षत्राणाम् अहं शशि वेदानां सामवेदोऽस्मि वेदानाम् अस्मि वासवः इन्द्रियाणां मनश्चास्मि भूतानाम् अस्मि चेतना रुद्राणां शङ्करश्चास्मि विथेशो यक्ष रक्षसाम् vasunam pavakashchami meru sikarinam aham. Purodasam chamukyamam vidiparta brahaspatim senaninam aham skandaha sarasam asmi sagaraha mahashinam bhrigur aham giram asmyekam aksharam yajnanam japa yajnosmi stavaranam himalayaha ashvata sarva vrikshanam devashinam chanaradaha gandharvanam chitrarata siddhanam kapilo munihi uchaishavasam asvanam vidhimam amritodbhavam airavatam gajendranam naranam cha naradhipam ayudhanam aham vachram dhenunam asmi kamaduk prajanaschasmi kandarpa sarpanam asmi vasukihi anantaschasmi naganam varuno yadasam aham pitranam aryamachasmi yamasam yamatam aham praladaschasmi daityanam kala kalayatam aham mriganam cha mrigendroham vainateyascha pakshinam pavana pavatam asmi rama shastra bratam aham jaschanam makarashchasmi shrotasam asmi janavi sarganam adhirantascha madhyam chaivaham arjuna adhyatma vitya vityanam vada pravadatam aham aksharanam akarosmi dvandva samasikasya cha aham eva kshaya kalo dataham vishvato mukaha mrityu sarva harashchaham ubhavashcha bhai vishyatam kirti shrir vakcha narinam smritir medhadritik shama brahatsama tatasamam gayatre chandasam aham masanam margoshirshoham ratunam ksusumakaraha dyutam chalayatamasmi tejas tejasvinam aham jayosmi vyavasayosmi satvam satvavatam aham vrishninam vasudevosmi pandavanam dhananjayaha muninam apyaham vyasaha kavinam ushana kavihi dandodama yathamasmi nityir asmin jigishatam maunam chaivasmi guhyanam jnanam jnanavatam aham yachapi sarvabhutanam bijam tat aham arjuna natadasti vinayatsyam maya bhutam characharam nantosti mamma divyanam vibhutinam parantapa isha tu deshatta prokto vibhuter vistaro maya yakyat vibhuti matsatvam shrimad vajitam evava tat tat evava gachatvam mama tejom shasambhavam atava bahunaitena kimnyatena tavajuna vishtabhyaham idam kratsnam ekam shenastito jagat Hari Om Tat Sat Iti Srimad Bhagavad Gita Supanishatsu Brahma Vidyayam Yoga Shastra Shri Krishna Arjuna Samvade Vibhuti Yogo Nama Dashamodhyaya.